अथ सप्तमः स्कन्धः
अथ चतुर्थोऽध्यायः नारद उवाच एवं मृतः शतधृतिर्हिरण्यकशिपो रथ प्रादात्तप्सा प्रीतो वरांस्तस्य सुदुर्लभान् ब्रह्मोवाच ताते मे दुर्लभा पुंसां जान् वृणीषे वरान् मम तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान् ततो जगाम भगवान् अमोघानुग्रहो विभु पूजितो सुरवर्जेण स्तूयमानः प्रजेश्वरैः एवं लब्धपरो दैत्यो बिभ्रद हेममयं वपुः भगवत्तकरो द्वेषं भ्रातुर्वधमनुस्मरन् स विजित्त दिशः सर्वा लोकांश्च त्रिन्महासुरः देवासुरमनुष्येन्द्रान् गन्धर्व गरुडोरगान् सिद्धचारण विद्याध्रान् ऋषिन् पितृपतीन् मनुन् यक्षरक्ष पिशाचेषान् प्रेतभूतपतीनथ सर्वसत्त्वपतिन् जित्वा वशमानीय विश्वजित् जहार लोकपालानां स्थानानि सह तेजसा देवोद्यानश्रियाजुष्टम् मध्यास्ते स्म त्रिविष्टपम् महेन्द्रभवनम् साक्षात् निर्मितम् विश्वकर्मणा त्रैलोक्यलक्ष्म्यायतन मध्युवासाखिलर्धिमत् यत्र विद्रुमसोपाना महामार्कता भुवः यत्र स्फटिककुड्यानि वैदुर्जस्तम्भपङ्क्तयः यत्र चित्रवितानानि पद्मरागासनानि च पयः फेननिभासज्या मुक्ता दामपरिच्छदः कुजद्भिर्नुपुरैर्देव्य शब्दयन्त्यः इतस्ततः रत्नस्थलीषु पश्यन्ति सुदतिः सुन्दरम् मुखम् तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् रेमे विबन्धाङ्घ्रिजुगः सुराद्भिः प्रतापितैरुर्जितचण्डशासनः तमङ्गमत्तम् मधुनोरुगन्धिना बिभृत ताम्राक्षमशेषधिष्णपः उपासतोपायन पाणिभिर्विना त्रिभिस्तपो योगबलौजसाम् पदम् जगुर्महेन्द्रासनमोजसा स्थितम् विश्वा वसुस्तुम्बुरुरस्मदादयः गन्धर्वसिद्धा ऋषयोऽस्तु वन्मुहुर् विद्याधरा अप्सरसश्च पाण्डव स एव वर्णाश्रमिभिः क्रतुभिर्भूरि दक्षिणैः इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा अकृष्टपच्या तस्यासीत् सप्तद्वीपवद्भिः तथा कामदुघाद्यस्तु नानाश्चर्यपदम् नभः रत्नाकराश्च रत्नौघा तत्पत्न्यश्चोहुरुर्मिभिः क्षारसीधु घृतक्षौद्र दधि क्षीरामृतोदकः शैलाद्रोणिभिराक्रीडम् सर्वर्तुषु गुणान्द्रुमः दधारलोकपालानाम् एक एव पृथक् गुणान् चैत्थम् निर्जितककू एकराड् विषयान् प्रियान् जथोपजोषम् भुञ्जानो नातृप्यदजितेन्द्रियः एवमैश्वर्यमत्तस्य दृप्तस्वच्छास्त्रवर्तिनः कालो महान् व्यतीताय ब्रह्मशापमुपेयुषः तस्योग्रदण्डसंविघ्ना सर्वे लोकाः सपालकः अन्यत्रालब्धशरणः शरणम् ययुरच्युतम् तस्यै नमस्तु काष्ठायै जत्रात्मा हरिरीश्वरः जद्गत्वा न निवर्तन्ते शान्तः सन्न्यासिनो मलः इति ते संयतात्मान समाहित धियो मलः उपतस्थुर्हृषिकेशम् विनिद्रा वायुभोजनः तेषामाविर्भूद्वाणी अरूपा मेघनिस्वना सन्नादयन्ति ककुभ साधूनामभयङ्करी मा भैष्ट विबुध श्रेष्ठा सर्वेषाम् भद्रमस्तु वः मद्दर्शनम् हि भूतानाम् सर्वश्रेयोपपत्तये ज्ञातमेतस्य दौरात्म्यम् दैतेयापसदस्य च तस्य शान्तिम् करिष्यामि कालम् तावत् प्रतीक्षत जदा देवेशु वेदेशु गोषु विप्रेशु साधुषु धर्मे मयि च विद्वेष सवा आशु विनश्यति निर्वैराय प्रशान्ताय स्वसुताय महात्मने प्रह्लादाय जदा द्रुह्ये धनिष्योऽपि वरोर्जितम्। नारद उवाच इत्युक्ता लोकगुरुणा तम् प्रणम्य दिवौकषः न्यवर्तन्त गतोद्वेगा मे निरे चासुरम् हतम्। तस्य दैत्यपतेः पुत्रा चत्वारः परमाद्भुतः प्रह्लादो भूर्महान् तेषाम् गुणैर्महदुपासकः ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः आत्मवत् सर्वभूतानाम् एकः प्रियसुहृत्तमः। दासवत्सन्नतार्जाङ्घ्रिः पितृवद्दीनवत्सलः भ्रातृवत्सदृशे स्निग्धो गुरुशुशीश्वरभावनः विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः। नोद्विग्नचित्तो व्यसनेषु निःस्पृह श्रुतेषु दृष्टेषु गुणेषु वस्तुदृक् दान्तेन्द्रिय प्राणशरीरधिः सदा प्रशान्तकामो रहिता सुरसुरः। जस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः न ते धुना पिधीयन्ते यथा भगवतीश्वरे यम् साधुगाथा सदसि रिपोऽपि सुरा नृप प्रतिमानम् प्रकुर्वन्ति किं तान्ये भवादृशः। गुणैरलमसङ्ख्येयैर्महात्म्यम् तस्य सूच्यते वासुदेवे भगवति यस्य नैसर्गिकी रतिः। न्यस्तक्रीडनको बालो जड्वत्तन्मनस्तत्तया कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम्। आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् नानुसन्धत एतानि गोविन्द परिरम्भितः। क्वचित् रुदति वैकुण्ठ चिन्ता सबलचेतनः क्वचित् हसति च तच्चिन्ता ह्लादगुद्गायति क्वचित् नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् क्वचित् तद्भावनायुक्तस्तन्मयोऽनुचकारः क्वचिद् उत्पुल्कस्तु श्रीम् आस्ते संस्पर्श निर्वृतः। स्पन्द प्रणयानन्द सलिला मिलित क्षणः स उत्तम श्लोक पदारविन्दयोर्निषेवया किञ्चन सङ्गलब्धया तन्वन्परा निर्वृतिमात्मनो मुहुर्दुःसङ्गदीनान्यमनः शमम् व्यधात्। तस्मिन् महाभागवते महाभागे महात्मनि हिरण्यकशिपुराजन् अकरोदघमात्मजे। युधिष्ठिर उवाच देवर्ष एतदिच्छाम वेदितुम् तव सुव्रत जदात्मजाय शुद्धाय पिता दात् साधवे यघम्। पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलः उपालम्भन्त शिक्षार्थम् नैवाघमपरो यथा किम् तानुवशान् साधुन् तादृशान् गुरुदेवतान् एतत् कौतूहलम् ब्रह्मन् अस्माकम् विधम प्रभो पितुः पुत्राय जद्वेषो मरणाय प्रयोजितः। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः।